वयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झाः। आदौ मुख्याः वार्ताः। संसदा बैंकिंग व्यवस्थायाः आधुनिकीकरण विधेयकं स्वीकृतम्। लोकसभया तावत् अधिकरण परिष्कार विधेयकं च पारितं गतम्। झारखण्डे परीक्षार्थीनाम् आन्दोलनं सप्तदश दिवसं व्याप्य प्रचलति। अशेषे हि देशे तावत् ध्वज यात्राणाम् आयोजनं वर्तते। अपि च चीनदेशे भीषण चक्रवातेन दशलक्षतोप्यधिकाः जनाः स्थानान्तरिताः। अथ वार्ताः विशदीकृत्य। संसदा अद्य बैंकर्स बुक्स एविडेंस विधेयकं 26-26 पारितं गतम्, यत् लोकसभानन्तरं राज्यसभया अपि स्वीकृतम्। वित्तमन्त्रिणा निर्मला सीतारामन इत्यनया उपस्थापितेन विधेयकेन डिजिटल बैंकिंग अभिलेखानां साक्ष्यरूपेण विधिक स्वीकार्यता सम्पुष्टा भवति। इतः प्राग् नीट विषये विपक्षस्य कोलाहलेन राज्यसभायाः कार्याचरणं बहुवारं स्थगितम् अभवत्। लोकसभयाद्य अधिकरण परिष्कार विधेयकं 26-2000 ध्वनिमतेन पारितम्। विविधानाम् अधिकरणाध्यक्षाणां सदस्यानां च अर्हतासु नियुक्तौ सेवापक्षाश्रयेषु च पारदर्शितां स्वायत्ततां एकरूपतां च आनेतुम् अथ च तेषां कार्यप्रणाल्यां दक्षतावर्धनम् अस्य विधेयकस्य मुख्योद्देश्यं वर्तते। अस्य विधेः अन्तर्गतम् एकस्य राष्ट्रियाधिकरण आयोगस्य स्थापनायाः अपि प्रस्तावो वर्तते। नीट परीक्षा प्रकरणे प्रदर्शनरतानां छात्राणामुपरि आरक्षकाणां कथित कार्याचरणमवलम्ब्य विपक्षस्य कोलाहले विचार विमर्शं विनैव एतद् विधेयकं पारितम्। पीठासीनाधिकारी जगदम्बिका पालः अवोचत् यत् संसदीय कार्यमंत्री किरेन रिजिजुः विपक्षस्य याचनां पूर्वमेव स्वीकृतवान्। अथ केन्द्रीय गृहमंत्री अमितशाहः छात्र प्रदर्शन सम्बन्धे वक्तव्यं दातुं सन्नद्धो वर्तते, किन्तु अविरत कोलाहलेन संकुलं सदनम् अवलोक्य सभापतिना अद्य आदिनाय सदनस्य कार्याचरणं स्थगितम्। इतः प्राग् अपराह्णे द्विवादने द्वितीय स्थगनानन्तरं यदा सदनस्य कार्याचरणं पुनरारब्धम् तदा केन्द्रीय विधि न्यायमंत्री अर्जुन राम मेघवालः विपक्षस्य गंभीर कोलाहले एव एतद् विधेयकं उपस्थापितवान्। ततः पूर्वं मध्याह्ने द्वादशवादने प्रथम स्थगनानन्तरं यदा सदनं समवेतम् तदा कृष्णांगारक खनन मंत्री जी किशन रेड्डी खनिखनिज संशोधन विधेयकं उपस्थापितवान्। केन्द्रीय मंत्री किरेन रिजिजुः अद्य स्पष्टीकृतवान् यत् छात्र प्रदर्शन प्रकरणे संसदी चर्चां कर्तुं प्रशासनं तत्परमस्ति। कार्यमन्त्रणा समित्याः उपवेशनात् परं तेन विपक्षेन सह सदनस्य कार्यं निर्बाधं संचालयितुं सविनयम् आह्वानं कृतम्, येन गृहमन्त्री अमितशाहः एतद्विषये आधिकारिकं वक्तव्यं प्रदातुं शक्नुयात्। प्रधानमन्त्री नरेन्द्रमोदी ह्यः नवदिल्ल्यां 26-2000 राष्ट्रमण्डल क्रीडा पदक विजेतृभिः सह अमिलत्। तेन सप्रश्रयं समुदीरितं यत् वास्तविक प्रतिष्ठा क्रीडाभावेन एव लभ्यते।
आपके इस अचीवमेंट को सिर्फ आपका अचीवमेंट मानता हूं ऐसा नहीं है, ये आपका विजय आने वाली पीढ़ियों के लिए बहुत बड़ी प्रेरणा बन जाता है। अगर आप लोग खेलो इंडिया की प्रतिष्ठा बढ़ाते हैं, और प्रतिष्ठा सिर्फ वहां जाकर के रिबन काटने से नहीं होगी, आप वैसे ही खेलेंगे जैसे एक छोटा खिलाड़ी खेलता है, ये बहुत बड़ा कॉन्ट्रीब्यूशन करेगा, क्योंकि अभी तो हमें बहुत आगे जाना है।
स्कॉटलैंड इत्यस्य ग्लास्गो नगरे सम्पन्नासु एतासु स्पर्धासु भारतेन 13 स्वर्ण 17 रजत 9 कांस्य पदकैः सह आहत्य 41 पदकानि विजित्य चतुर्थं स्थानं लब्धम्। प्रधानमन्त्रिणा नरेन्द्र मोदिना खेलो इण्डिया अभियानस्य विस्ताराय क्रीडका प्रोत्साहिता। भारोत्तोलिका मीराबाई चानु इत्यस्या प्रशंसां कुर्वता तेन ससंभ्रमं प्रोदीरितं यत् क्रीडकानां विजय छात्राणां कृते महती प्रेरणा वर्तते। तेन अभाषी यत् राष्ट्रस्य क्रीडा प्रगति केवलं सुविधामूला न भूत्वा समग्र क्रीडा संस्कृतेः निर्माणे आश्रिता अस्ति। अन्ते च प्रधानमन्त्रिणा सर्वेभ्यः क्रीडकेभ्यः शुभकामनाः प्रकटीकृताः। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि समुपलब्धो भविष्यति। विश्व सिंह दिवसावसरे प्रधानमंत्री नरेन्द्र मोदी अद्य न्यगादीत यत् भारते एशियाई सिंहानां संख्या निरन्तरं वर्धते, सहैव तेषां आवास क्षेत्रमपि विस्तारं अवाप्नोति। केन्द्रीय मन्त्रिणः भूपेन्द्र यादवस्य एकं लेखं प्रकाशयन् श्रीमोदी प्रतिपादितवान् यत् वन्यजीव संरक्षणाय सर्वकारस्य दृढ संकल्पः, जनसमुदायस्य बलिष्ठा सहभागिता च देशस्य वन्यजीवानां रक्षणाय अनुकरणीयम् उदाहरणमस्ति। झारखण्डराज्ये जेएसएससी सीजीएल परीक्षायाः निरस्तीकरणाय सीबीआई अन्वेषणाय च छात्रान्दोलनस्य अद्य सप्तदशं दिनं वर्तते। रांचीनगरे विधानसभां प्रति पदयात्रां कुर्वत्सु छात्रेषु आरक्षकबलेन जल प्रक्षेपणास्त्रस्य प्रयोगः कृतः। प्रशासनं पक्षतः उक्तं यत् छात्राणां याचनाः स्वीकृताः सन्ति, तथापि प्रदर्शनकारिणः छात्राः स्वस्य प्रमुखयाचनाः अधिकृत्य अद्यापि स्वनिर्णये दृढाः सन्ति। अशेषे हि देशे हर घर तिरंगा इत्यभियानं सर्वत्र अत्यन्तं उत्साहप्रदं गतिं भजते, येन राष्ट्रिय गौरवस्य ऐक्य भावनायाः च सामूहिक उत्सवे समाजस्य सर्वेषां वर्गाणां जनाः सहभागिनः भवन्ति। एतत् अभियानं अस्य मासस्य सप्तदश दिनांकं यावत् प्रचलिष्यति, यत् अस्मिन् वर्षे वन्दे मातरं राष्ट्रगीतस्य सार्धशत वार्षिकी समारोहेण सह सम्पद्यते, येन सर्वस्य देशभक्तस्य हृदयम् अत्यन्तं प्रमुदितमस्ति। प्रधानमन्त्री नरेन्द्र मोदी विकसित भारतस्य संकल्पं पूर्त्यै अस्मिन् अभियाने जनसहभागितायै आह्वानम् अकरोत्। केन्द्रीय गृहमन्त्रिणा अमितशाहेन देशवासिनः ध्वजयात्रा माध्यमेन वन्दे मातरं गानेन च इदं राष्ट्रिय महोत्सवं संवर्धयितुम् आग्रहो विहितः। सहैव असौ स्वगृहेषु राष्ट्रध्वजम् उत्तोल्य हरघरतिरंगा.com जालपुटे सेल्फी इति आत्मचित्रं प्रेषयितुमपि आहूतवान्। चीनदेशे डॉल्फिन चक्रवातस्य सम्पातनानन्तरं शंघाई नगरं समेत्य पूर्वचीनक्षेत्रात् दशलक्षतोप्यधिकाः जनाः सुरक्षितस्थानेषु प्रापिताः। अनेन चक्रवातेन सम्पूर्णे क्षेत्रे भीषणवृष्टिः अजायत, येन यातायातसौविध्यम् अबाधत। अत्रावधेयं यत् अद्य शंघाई नगरे प्रायः सहस्राधिकाः विमानसेवाः निरस्ताः। एतदतिरिच्य शांगडोंग, हेनान, हुबेई, अनहुई, जिंगहांगसू, झेजियांग प्रान्तेषु अतीव तीव्रवृष्टेः पूर्वसूचना च प्रख्यापिता। शंघाई नगरे अपि अति तीव्रवृष्टेः संभावना वर्तते। प्रशासनेन जनाः बाह्यगतिविधीन् परिहर्तुं निर्दिष्टाः। चीन प्रशासनेन पूर्वमेव एतदर्थं रक्तवर्णीया संचेतना च उद्घोषिता आसीत् इति वार्ताः।